सदा सत्स्वरूपं चिदानन्दकन्दं जगत्संभवस्थानसंहारहेतुं स्वभक्तेच्छया मानुषं दर्शयन्तं नमामीश्वरं सद्गुरुं साईनाथं भवद्भान्तविध्वंसमार्तण्डमीड्यं मनोवागतीतं मुदिध्यानगम्यं जगद्व्यापकं निर्मलं निर्गुणं त्वां नमामीश्वरं सद्गुरुं साईनाथं बोधिमग्नार्दितानां जनानां स्वपादाश्रितानां स्वभक्तिप्रियाणां समुद्धारणार्थं कलौ संभवन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा निम्बवृक्षस्य मूलाधिवासात् सुधास्त्राविणं तिक्तमप्यप्रियङ्कम् तरुं कल्पवृक्षाधिकं साधयन्तं नमामीश्वरं सद्गुरुं साईनाथम् सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावबुद्ध्या सपर्यादिसेवा नृणां कुर्वतां भुक्तिमुक्तिप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथं अनेकाश्रुता तर्क्यलीलाविलासैः समाविष्कृते शानभास्वत्प्रभावम् अहं भावहीनं प्रयत्नात्मभावं नमामीश्वरं सद्गुरुं साईनाथम् सतां विश्रमाराममेवाभिरामं सदा सज्जनैः संस्तुतं सन्नमद्भिः जनामुददं भक्तभद्रप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथम् अजन्माद्यमेकं परं ब्रह्म साक्षात् स्वयं संभवं राममेवावतीर्णम्। भवद्दर्शनात् संपुनीतः प्रभोऽहं नमामीश्वरं सद्गुरुं साईनाथं।